नमस्सर्वेभ्यः। अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे अव्ययीभावसमासे पञ्चमः पाठः। अद्य वयम् अव्ययीभावे समासान्तानां विषये जानीमः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहङ्क पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। मिलित्वा पठामः। अव्ययीभावः अधिकारोऽयं प्राक् तत्पुरुषात् अव्ययं विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय असंप्रति शब्द प्रादुर्भाव पश्चाद् यथा आनुपूर्व्य यौगपद्य सादृश्य संपत्ति साकल्य अन्तवचनेषु विभक्त्यर्थादिषु वर्तमानम् अव्ययं सुबन्तेन सह नित्यं समस्यते सह अव्ययी भावः। प्रायेण अविग्रहः नित्यसमासः। प्रायेण अत्वपरविग्रहो वा विभक्तौ हरि नि अधि इति स्थिते प्रथमानिर्दिष्टं समास उपसर्जनम्। समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञं स्यात् उपसर्जनं पूर्वं समासे उपसर्जनं प्राक् प्रयोज्यम् इति अधेः प्राक् प्रयोगः। सुपोलुक् एकदेशविकृतस्य अनन्यत्वात् प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः अव्ययीभावश्च इति अव्ययत्वात् सुपोलुक् अधिहरि अव्ययीभावश्च अयं नपुंसकं स्यात् नाव्ययीभावादतों त्वपञ्चम्याः अदन्तादव्ययीभावात् सुपः न युक् तस्य पञ्चमीं विना अमादेशश्च स्यात् गाः पातीति गोपाः तस्मिन् इति अधिगोपम् तृतीया सप्तम्योर्बहुलम् अदन्तादव्ययीभावात् तृतीया सप्तम्योः बहुलम् अम्भावः स्यात् अधिगोपम् अधिगोपेन अधिगोपे वा कृष्णस्य समीपम् उपकृष्णम् मद्राणाम् समृद्धिः सुमद्रम् यवनानाम् विरुद्धिः दुर्यवनम् मक्षिकाणामभावः निर्मक्षिकम् हिमस्य अत्ययः अतिहिमम् निद्रा सम्प्रति न युज्यते इति अतिनिद्रम् हरिशब्दस्य प्रकाशः इति हरि विष्णोः पश्चात् अनुविष्णु योग्यता वीप्सा पदार्थ अनतिवृत्ति सादृश्यानि यथार्थाः रूपस्य योग्यम् अनुरूपम् अर्थमर्थम् प्रति प्रत्यर्थम् शक्तिम् अनतिक्रम्य यथाशक्ति। अव्ययीभावे चा काले सहस्य सहस्यादव्ययीभावे न तु काले हरेः सादृश्यम् सहरि ज्येष्ठस्य आनुपूर्व्येण इत्यनुज्येष्ठम् चक्रेण युगपत्सचक्रम् सदृशः सख्या ससखि क्षत्राणाम् सम्पत्तिः सक्षत्रम् तृणमपि अपरित्यज्य सतृणम् अस्ति अग्निग्रन्थपर्यन्तम् अधीते साग्नि नदीभिश्च नदीभिस्सह सङ्ख्या समस्यते समाहारे च अयमिष्यते पञ्चगङ्गम् द्वियमुनम्। एतावद्दृष्टम् अव्ययीभावसमासविधानम् अव्ययं विभक्ति इति सूत्रेण तथैव नदीभिश्च इति सूत्रेण अव्ययीभावसमासः विधीयते। तत्र कीदृशी प्रक्रिया इत्यपि ज्ञातवन्तः। अभ्यासान् अग्रिमसप्ताहे पश्यामः। अत्र कोऽपि सन्देहः अस्ति चेत् पृच्छन्तु। नास्ति तर्हि अग्रे गच्छामः। अद्यतनविषयः समासान्तप्रत्ययानां परिचयः अव्ययीभावे समासान्ताः इति। तत्र तद्धिताः इति तद्धिताधिकारः आरभ्यते चतुर्थाध्याये प्रथमपादे। तद्धिताः इति एकमेव पदमस्ति सूत्रे। प्रथमा बहुवचनान्तम् इदम् अधिकारसूत्रम् तद्धित इति संज्ञा अनेन दीयते अयम् प्रत्ययाधिकारे एव अस्ति अतः इतः आरभ्य तद्धितप्रत्ययाः उच्यन्ते तद्धितप्रत्ययानाम् सामान्यम् ज्ञानम् स्यात् दशरथस्य पुत्रः दाशरथिः जनानाम् समूहः जनता गुणः अस्य अस्ति इति गुणवान् एते सर्वेपि तद्धितप्रत्ययान्ताः शब्दाः तद्धितप्रत्ययाः उच्यन्ते तेषाम् अधिकारः अनेन सूत्रेण आपञ्चमसमाप्तेः अधिकारोऽयम् इत आरभ्य पञ्चमाध्यायस्य समाप्तिपर्यन्तम् तद्धितप्रत्ययाः सन्ति प्रायेण अध्यायद्वयम् तद्धितप्रत्ययानाम् कृते एव अस्ति सो 4176 टु 54160 सो द एण्टैर् टू चाप्टर्स् आफ् द अष्टाध्यायी आर् डेडिकेटेड् टु तद्धितप्रत्यय सो प्रत्ययानाम् सङ्ख्यादृष्ट्या तद्धितप्रत्ययाः एव अत्यन्तम् अधिकाः सन्ति सङ्ख्यादृष्ट्या अर्थभेददृष्ट्या सर्वत्रापि तद्धिताधिकारः महान् तद्धितवृत्तिः कृत् तद्धितसमास एकशेष सनाद्यन्तधातुवृत्तिषु तद्धितवृत्तिः अपि अन्तर्भवति तत्र इदानीं किमर्थं तद्धिताधिकारः इत्युक्ते अस्मिन् अधिकारे तद्धिताः इत्यधिकारे समासान्ताः इति केचन प्रत्ययाः उच्यन्ते समासान्ताः 5468 as you can see it is within the तद्धिताधिकार समासान्ताः अत्रापि एकमेव पदमस्ति प्रथमा बहुवचनान्तम् इदमपि अधिकारसूत्रम् समासान्तप्रत्ययाः अस्मिन् अधिकारे उच्यन्ते अधिकारोऽयम् इत आरभ्य पादस्य समाप्तिपर्यन्तम् 5468 टु 54160 almost 100 sutras give a set of pratyayas called samasanta pratyayah yatha namna eva jnayate samasasya ante ye pratyayah bhavanti te samasanta pratyayah iti uchyante a pada parisamaptehe itaha arabhya panchamadhyayasya chaturthapadasya samapti paryantam ये प्रत्ययाः विहिताः ते समासान्तावयवाः एकदेशाः भवन्ति समासस्य अन्तावयवाः नाम एकदेशाः एकदेशः अवयवः समासः अस्ति तस्य अन्तावयवः भवति समासान्तः अवयवः इत्युक्ते कः अर्थः अनेन अभिप्रेतः इत्युक्ते इदानीम् अत्र अस्माभिः कश्चित् समासः क्रियते तत्र इदानीं प्रत्ययं योजयामः चेत् सः प्रत्ययः भिन्नः समासः भिन्नः इति भवति चेत् अग्रे अस्माकं क्लेशः भवति अतः एते प्रत्ययाः समासस्य अन्ते योज्यन्ते समासस्यैव अवयवः अर्थात् तं प्रत्ययमपि योजयित्वा समाससंज्ञा भवति अत एव समासस्य अन्तावयवाः समासस्य एव भागः भवति अयं प्रत्ययः इट् इस् एडेड् टु द समास एण्ड् बिकम्स् अ पार्ट् आफ् द समास समासान्तप्रत्यये कृते तं प्रत्ययमपि योजयित्वा अस्माभिः समासत्वव्यवहारः क्रियते ते समास अन्तावयवाः एकदेशाः भवन्ति तद्ग्रहणेन गृह्यन्ते इति वेदितव्यम् एकम् उदाहरणं वदामि इदानीं महाराजन् इत्यस्ति महत् शब्दस्य राजन् शब्दस्य च समासः क्रियते तत्र महाराजन् इति भवति महाराजन् इति समासः समासत्वात् कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति इदानीम् अत्र वयम् एकं समासान्तप्रत्ययं योजयामः राजाः सखिभ्यश्टच् इत्यनेन टच् इति समासान्तप्रत्ययः योज्यते प्रत्ययस्य योजनेन अत्र लोपः भवति महाराज इति सिद्ध्यति। इदानीं महाराज इत्यत्र महाराज इति यदस्ति तत्तु प्रातिपदिकस्य भागः, अ इति प्रत्ययस्य भागः, तच्चित्यत्र अकारः। अद्यैव ज्ञायते कथम् एतद् भवति इति। इदानीम् इदं पूर्णमपि यदि समासः भवति तदा एव अस्माभिः अग्रे प्रत्ययं योजयित्वा महाराजः, महाराजौ, महाराजाः इत्यादि वक्तुं शक्यते। यदि अयं प्रत्ययः पृथग् भवति तदा महाराज इत्येव प्रातिपदिकं भवति। महाराज इत्यस्य प्रातिपदिकत्वं न भवति चेत् अग्रे सुप्रत्ययस्य योजनं न शक्यते। अत एव समासान्तः इत्युक्ते कश्चित् प्रत्ययः समासस्य अन्ते योज्यते, समासस्य अन्तावयवः भवति। सो समासान्ताज् आर् प्रत्ययस् विच् आर् एडेड् टु द एण्ड् आफ् द समास एण्ड् फार्म् अ पार्ट् आफ् द समास, तद्ग्रहणेन गृह्यन्ते। अर्थात् यत्र यत्र समासः इति उच्यते तत्र समासान्तप्रत्ययस्य योजनं कृत्वा एव अस्माभिः समासत्वव्यवहारः क्रियते इत्यर्थः। अवगतं? बहु मुख्यमस्ति, इट्स् अ वेरि वेरि इम्पार्टेण्ट् कान्सेप्ट् इन् समास। सो समासान्ताः इति तद्धितप्रत्ययाः सन्ति। एते समासान्ताः इतः आरभ्य प्रायः शतेन सूत्रैः समासान्तप्रत्ययाः उच्यन्ते। तत्र केचन समासान्तप्रत्ययाः अव्ययीभावसमासस्य एव भवन्ति, केचन तत्पुरुषस्यैव, केचन बहुव्रीहेरेव, केचन द्वन्द्वस्यैव। पृथक् पृथक् समासानां कृते पृथक् समासान्ताः उच्यन्ते। कदाचित् सामान्यतः सर्वेषु समासेषु इदं पदमस्ति चेत् समासान्तः भवति इत्यपि भवति। अतः किं कुर्वन्ति लघुसिद्धान्तकौमुद्यां सिद्धान्तकौमुद्यां वा, अव्ययीभावसमासप्रकरणमस्ति, अन्ते अव्ययीभाव समासस्य विशिष्टाः ये समासान्तप्रत्ययाः ते उच्यन्ते। पुनः तत्पुरुषसमासः तस्य समासान्ताः, बहुव्रीहिः तस्य समासान्ताः, द्वन्द्वः तस्य समासान्ताः, अन्ते आहत्य समासान्तप्रकरणम् इति पृथगपि भवति। सर्वेषु समासेषु ये सामान्यतः समासान्ताः भवन्ति तेषां पृथग् अध्ययनमपि क्रियते। तस्मिन् तस्मिन् प्रकरणे तत्तत् प्रकरणसम्बद्धानां समासान्तप्रत्ययानाम् अध्ययनम् अपि क्रियते। इदानीम् अव्ययीभावसमासः अस्माभिः अधीतः। तर्हि अव्ययीभावसमासे विशिष्य के समासान्तप्रत्ययाः भवन्ति इति अग्रे उच्यते। तत्र प्रथमं सूत्रमस्ति अव्ययीभावे शरत्प्रभृतिभ्यः इति। अव्ययीभावे इति सप्तमी विभक्तिः, शरत्प्रभृतिभ्यः इति पञ्चमी बहुवचनम्। टच् इति अनुवर्तते, पूर्वतनसूत्रात् टच् इति अनुवर्तते। समासान्ताः तद्धिताः इति अधिकारः। कः अर्थः? अव्ययीभावसमासे शरत्प्रभृतिभ्यः टच् इति प्रत्ययः भवति, सः प्रत्ययः समासान्तः, सः तद्धितः च इति विधिसूत्रम्। टच् इति समासान्तप्रत्ययस्य विधानम् अनेन सूत्रेण क्रियते। शरदादिभ्यः टच् स्यात् समासान्तः अव्ययीभावे इति सूत्रार्थः। शरत् प्रभृतिभ्यः, प्रभृतिः आदिः इत्यर्थः, एट्सेट्रा। शरत् प्रभृतिः इति एकः गणः अस्ति। पूर्वमपि बहुत्र भवद्भिः पठितं स्यात्। किम् अधीतम् इतः पूर्वं? गणः सर्वादीनि सर्वनामानि इत्यनेन सर्वनामसंज्ञा विधीयते। केभ्यः विधीयते? सर्वादि इति कश्चित् गणः, तस्मिन् गणे ये शब्दाः सन्ति तेभ्यः सर्वनाम इति संज्ञा दीयते। गणस्य नाम सर्वदा गणस्य प्रथमं शब्दम् आश्रित्य भवति। अतः शरत्प्रभृतयः इति एकः गणः, तत्र बहवः शब्दाः सन्ति. प्रथमः शब्दः अस्ति शरत् इति. शरदादिगणे ये शब्दाः पठिताः ते अव्ययीभावसमासे उत्तरपदं भवन्ति चेत् तत्र टच् इति समासान्तप्रत्ययः योज्यते इति अस्य सूत्रस्य अर्थः. उदाहरणं दीयते, शरदः समीपम् उपशरदम्. तत्र शरदादिगणः इति एकः गणः, तत्र एतावन्तः शब्दाः सन्ति. दिस् इस् द ग्रूप् आफ् वर्ड्स् काल्ड् शरदादिगण. शरद् विपाश् अनस् मनस् उपानः दिव् हिमवत् अनडुः दिश् दृश् विश् चेतस् चतुर् त्यद् तद् यद् कियत्. एते शब्दाः सन्ति. जरायाः जरश्च प्रतिपरसम् अनुभ्यः अक्ष्णः. यत्र यत्र एवं ग इति उच्यते तत् गणसूत्रम् इत्यर्थः. सामान्यतः गणे शब्दाः भवन्ति, कदाचित् अधिकं किञ्चित् कार्यं भवति. अत्र वस्तुतः जरा शब्दः तस्य विशिष्य अन्यदपि अस्ति, तदर्थं गणसूत्रम् अस्ति. गणसूत्रद्वयमपि शरदादिगणे अस्ति. एतत् सर्वमपि शरदादिगणः. एते शब्दाः अव्ययीभावसमासे अन्ते श्रूयन्ते चेत्, सो इफ् दीस् एनी आफ् दिस् वर्ड् इस् अ पार्ट् आफ् एन् अव्ययीभावसमास, दट् इस् इट् इस् द उत्तरपद इन् एन् अव्ययीभावसमास, तदा टच् इति समासान्तप्रत्ययस्य योजनं क्रियते. शरदः समीपम् उपशरदम् इत्युच्यते. तत् कथम् कथम् भवति? शरत् ङस् उप अव्ययम् विभक्ति समीप समृद्धि वृद्ध्यर्थाभावात्यया सम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा अनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्यान्तवचनेषु इति सूत्रेण अव्ययीभावसमासः क्रियते. शरद् ङस् उप. तत्र सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक् भवति. शरद् उप इत्यस्ति. उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः उप इत्यस्य. उपशरद् इति समासः. अयम् अव्ययीभावसमासः. अव्ययीभावसमासस्य अन्ते शरद् इति शब्दः श्रूयते. अतः इदानीम् अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण टच् प्रत्ययः क्रियते. सो टच् इति प्रत्ययं योजयामः. उप शरद् टच्. तत्र टच् इत्यत्र इत्संज्ञा भवति. छुटु इत्यनेन टकारस्य इत्संज्ञा भवति. हलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा भवति. तस्य लोपः इत्यनेन टकारचकारयोः लोपे अकारः शिष्यते. सो टच् इति समासान्ते वस्तुतः अकारः भवति. उप शरद् अ. इदानीम् उपशरद इति समासः. तस्य प्रातिपदिकसंज्ञा अस्ति. सुप्रत्ययः क्रियते. उपशरद सु. सु औजस् इत्यादिना सुप्रत्ययः. अदन्तत्वात् नाव्ययीभावात् अतो अंशपञ्चम्याः इत्यनेन अमादेशः. अमिपूर्वः इत्यनेन पूर्वरूपे उपशरदम् इति पदं भवति. तो टच् प्रत्ययस्य योजनेन किं क्रियते? अकारान्तत्वं भवति तस्य समासस्य. अदन्तत्वं भवति. अत्र पश्यन्तु, शरदादिगणे प्रायेण सर्वे शब्दाः हलन्ताः शब्दाः, शरद्विपाशनस्मनस् इत्यादि. वस्तुतः किं भवेत्? यदि साक्षात् तथैव सुप्रत्ययः क्रियते तर्हि अव्ययादाप्सुपः इत्यनेन सुब्लुक् भवेत्. किन्तु टच् प्रत्ययस्य योजनेन सर्वत्रापि अकारान्तत्वं भवति. अकारान्तत्वं भवति, अमादेशः भवति. अतः अम् उपशरदम् प्रतिविपाशम् प्रत्यनसम् अधिमनसम् इत्यादि सर्वत्रापि अदन्तत्वं संपद्यते। अवगतम्? एकः एव अंशः तच्चिति समासान्तः यत्र अकारः भवति। शरदः समीपम् उपशरदम्, उपशरत् इति न भवति, उपशरदम् इति भवति। केऽपि प्रश्नाः सन्ति वा? तत्र उपशरदम् एवमेव अन्येषां शब्दानां भवति। तत्र एकं गणसूत्रमस्ति, जरायाः जरस् च इति। कः अर्थः? जरा इति शब्दः शरदादिगणे पठ्यते, अतः टच् समासान्तः भवति। अपि च जरा इति शब्दस्य स्थाने जरस् इति आदेशः अपि भवति। अव्ययीभावे जराशब्दस्य समासान्तः टच् प्रत्ययः भवति, जरा शब्दस्य जरस् आदेशः अपि भवति। जरायाः समीपम्, क्लोज् टु ओल्ड् एज् इत्यर्थः। तत्र किं रूपम्? उपजरसम्। कथं भवति? जराङस् उप, अव्ययं विभक्ति इति समासः, सुब्लुक् जरा उप, उपसर्जनं पूर्वम् इति पूर्वनिपातः, उपजरा। इदानीम् उपजरा अ इत्युक्ते टच् प्रत्ययः, अव्ययीभावे शरत्प्रभृतिभ्यः इत्यनेन टच् समासान्तः भवति। तत्रैव जरायाः जरश्च इति गणसूत्रेण जरा इत्यस्य स्थाने जरस् इति आदेशः भवति। उपजरस् अ, उपजरस सुप्रत्ययः, तस्य अमादेशः उपजरसम्। जरायाः समीपम् उपजरसम् इति भवति। स्पष्टम्? अयम् अव्ययीभावे प्रथमः समासान्तप्रत्ययः। शरदादिगणे ये शब्दाः पठिताः तेभ्यः शब्देभ्यः टच् इति समासान्तप्रत्ययः भवति। अग्रिमसूत्रं पश्यामः। अनश्च इति अग्रिमं सूत्रम्। अनः इति पञ्चमी विभक्तौ एकवचनं, च अव्ययीभावे इति अनुवर्तते, टच् इति अनुवर्तते, समासान्ताः तद्धिताः इत्यधिकारः। कः अर्थः? अनः अन्नन्तादव्ययीभावात्, यत्र अव्ययीभावसमासस्य अन्ते अन् इति श्रूयते, तत्र टच् समासान्तः भवति। इदमपि विधिसूत्रम्, टच् इति समासान्तप्रत्ययः विधीयते, अन्नन्तात् अव्ययीभावात् टच् स्यात् इति सूत्रार्थः। यथा राज्ञः समीपम् इत्यस्ति। राज्ञः राजन् शब्दः, राजन् ङस् उप, सुब्लुक् भवति, पूर्वनिपातः भवति, उपराजन् अ, उपराजन् इति समस्तपदम्, तस्मात् टच् प्रत्ययः क्रियते, उपराजन् अ। इदानीं किं भवति? अग्रे इतोपि एकं सूत्रमस्ति, नः तद्धिते इति सूत्रम्। नः इति षष्ठी एकवचनं, तद्धिते इति सप्तमी एकवचनं, टेः लोपः इति पदद्वयस्य अनुवृत्तिः अस्ति, भस्य इति अधिकारः अपि अस्ति। अत्र टि इति काचित् संज्ञा, भ इति काचित् संज्ञा। इदं विधिसूत्रं। लोपः कस्य लोपः? टेः लोपः विधीयते। तत्र टि इत्युक्ते किम्? अचोन्त्यादि टि इति सूत्रमस्ति, संज्ञासूत्रम्। अचः अन्त्यादि टि अचाम् मध्ये यः अन्त्यः सः आदि यस्य तत् टिसंयम् स्यात्। मनस् इत्यस्ति अन्तिमः अच्। तदनन्तरम् ये हलः तत्सर्वम् योजयित्वा टि इति संज्ञा भवति। यदि अजन्तः शब्दः तर्हि केवलम् अचः टिसंज्ञा, यथा राम इत्यत्र अ इत्यस्य टिसंज्ञा। मनस् इत्यत्र तु अस् इत्यत्र टिसंज्ञा। तर्हि राजन् इत्यत्र कस्य टिसंज्ञा भवति? अन् इत्यस्य टिसंज्ञा भवति। राजन् इत्यत्र अन् इत्यस्य टिसंज्ञा भवति। तत्तु टिसंज्ञा। तेः लोपः इति अनेन सूत्रेण उच्यते। कदा भवति? भस्य इति अधिकारः अस्ति, भ इति संज्ञा, यचि भम् इति सूत्रमस्ति। सूत्रस्य पूर्णं विवरणम् इदानीं दातुं न शक्यते, किन्तु यदि सुप्रत्ययेषु अथवा तद्धितप्रत्ययेषु प्रत्ययः अजादिः अथवा यकारादिः अस्ति चेत् अङ्गस्य भसंज्ञा भवति। यत्र प्रत्ययः तद्धितप्रत्ययः सुप्रत्ययो वा यकारादिः अथवा अजादिः तदा अङ्गस्य भसंज्ञा भवति। अनेन सूत्रेण किमुच्यते? नान्तस्य नः इति भस्य इत्यस्य विशेषणम्। नकारान्तस्य भस्य टेः लोपः स्यात् तद्धिते, तद्धिते परे इत्यर्थः। नकारान्तं भसंज्ञकम् अङ्गं भवेत् तस्य टेः लोपः भवति तद्धिते। इदानीम् अस्माकं समीपे किमस्ति? उपराजन् इत्यस्ति। उपराजन् इति नकारान्तम्। अग्रे अजादिः प्रत्ययः अस्ति, अजादिप्रत्ययः अस्ति इत्यतः भसंज्ञा अस्ति। नान्तस्य भस्य तेः लोपः, टि इत्युक्ते अन्, अन् इत्यस्य लोपः भवति तद्धिते। अत एव समासान्तप्रत्ययाः तद्धिताधिकारे पठिताः। तद्धिते परे यत् कार्यं भवति तत् समासान्तेषु अपि भवति। अतः इदानीं लोपे किं भवति? अन् इत्यस्य लोपः, टिसंज्ञा अस्ति अन् इत्यस्य, तस्य लोपे उपराज अ उपराज इति अकारान्तः शब्दः। राज्ञः समीपम् उपराजम् इति भवति। उपराजन् इत्यस्ति, तत्र टच् समासान्तः, नस्तद्धिते इति विलोपः, उपराज सु नाव्ययीभावादतोऽम्पञ्चम्याः इति अमादेशे उपराजम्। अध्यात्मम् कः विग्रहः? कथं प्रक्रिया? कोऽपि वदति वा? अध्यात्मम् इति कथं भवति? मातङ्गि
लौकिक विग्रहम् इस् आत्मनि, सो अलौकिक विग्रहः आत्मन् नि अधि। देन् सुपो धातु प्रातिपदिकयोः इत्यनेन सुप् लुक्, देयरफोर आत्मन् अधि। देन् प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन अधि इत्यस्य उपसर्जनसंज्ञा, उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः, अतः अधि आत्मन्। देन् अधि आत्मन् दिस् टच् समासान्तः विल्क
सूत्रम् अनः
अनः अनश्च सो अधि आत्मन् अ देन् नस्तद्धिते इत्यनेन अन् अनः लोपः, अधि आत्म अ then ikoyanachi abhyatma, then svaujas nyatratipadika tatyanena abhyatma abhyatma su, then navyayi bhava tato amtu ampanchamyaha amadeshe ami purvaha purvarupe abhyatma.
Samyak adhyatmam iti bhavati atmani iti laukika vigrahe adhyatmam iti rupam bhavati. Uparajam ityasya prakriya vishesha kopi nasti uparajan a nastadhyate iti lopaha uparaj a anantaram amadeshah samanaritya adhyatmam anashcha ityanena annantat avyayi bhavat tach samasantah bhavati. Agrimam sutramasti napumsakat anyatarasyam iti. Napumsakat iti panchami ekavachanam, anyatarasyam iti saptami ekavachanam, anyatarasyam ityasya va vikalpena ityarthah, va vibhasha anyatarasyam bahulam. These are the four terms used in Vyakarana to indicate an option. There are minor differences, but va vibhasha anyatarasyam bahulam. So which means you have two forms. So vikalpena bhavati. Kim napumsakat vikalpena bhavati. Anaha iti anuvartate, avyayi bhave tach iti sarvam anuvartate, samasantaha tadhitaha. Vidhi sutram tat samasanta pratyaha vidhiyate. Kaha arthaha annantam yat klibam tadantad avyayi bhavat tach vasyat. Yadi annantaha shabdaha napumsakalinga shabdaha bhavati tarhi vikalpena tach bhavati. Purvam yadrishtam rajan shabdaha pullingaha, atman shabdaha api pullingaha. Yadi tatra napumsakalinga shabdaha bhavati tarhi tach vikalpena bhavati. Upacharmam upacharma iti diyate. Katham bhavati atra charmanaha samipam iti vigrahaha. Charma kin, no, charman iti nakarantaha napumsakalinga shabdaha. Charma charmani charmani iti. Charmanaha samipam, tarhi kim bhavati upacharman. Samanyataha samasaha subluk purvanipataha sarvam kritva upacharman ityasti. Idanim tach pakshe, yada tach pratyayantam kurmaha, tada upacharman a napumsakar anyatarasya mityanena tach pratyayaha bhavati. Nastadhite ityanena tilope upacharm a upacharmam. Supratyaya krite tasya amadeshe upacharmam iti bhavati. Taj abhave tach vikalpena uchyate, ataha yadi tach na kriyate tada kim bhavati upacharman ityeva pratipadikam. Tasmat supratyaya kriyate, tatra supratyayasya lopaha. Hal nyabhyo dirghat sutisya prattam hal iti sutramasti. Tena sutrena halantat parasya supratyayasya lopaha bhavati. Upacharman iti sthitam. Idanim nalopah pratipadikantasya ityanena nakara lope upacharma iti rupa. Samanyataha charma shabda idameva bhavati. Charma charmani charmani. Tatra charman su halnyabhyo dirghaditi sulopaha nalopa pratipadikantasya ityanena nalope upacharma. Evam yadi annantaha shabdaha napumsakaha bhavati tada tach vikalpena bhavati. Tachi krute akarantatvam bhavati, adantatvam tataha amadeshaha bhavati upacharmam iti. Yadi tach na kriyate tarhi nakarantatvameva bhavati tatra sulope nalope upacharma iti rupam. Spashtam. Prashnaha santiva.
two questions, Akka. They say for Ananta Shabda, you add the touch and then the T Lopa happens. So why can't you just directly apply Nalopa Pratipadikantasya, because it looks like what finally is happening with respect to at least the Shabdas that we've seen so far.
Sorry? Why can't you?
Directly just apply Nalopa Pratipadikantasya, because anyway touch will come. I mean, why does Nastadhite happen? Because Akaranta is anyway there at the end, and then you do Nalopa Pratipadikantasya, the Nakara goal, and Akara comes up.
Nalopa Pratiparikantasya when you have the Akara. Nalopa Pratiparikantasya se Pratiparika Samyakam yat padam. It is not just Pratiparika Samyak. Pratiparika Samyakam yat padam. It is only after it becomes pada that you can remove it. If there is Akara, it is not a pada. Upacharman is not a pada. So you cannot do Nalopa Pratiparikantasya.
And what about an Upacharman su? Can't you directly bhavasya, so it has napumsakatvam, so therefore the su avyayam, it has an avyaya samya, so therefore the su gets deleted and then you can do nalopa pratipadikantasya.
That also you can do. Actually avyaya dapsupaha is quite possible. What is avyaya dapsupaha number? That is Lopa can be through Avyaya Dapsupaha also. I'll just check out. It should probably be by Avyaya Dapsupaha only. So, either way, you remove the Su, then you have a Pada which is also Pratipadika, and then we do Nalopa Pratipadika Antasya. So, okay. This one I'll check and let you know. It should be Avyaya Dapsupaha. Any other questions? No? Tarihi. Agre Gatsamaha. Agrimam Sutramasti Jayaha. Jayaha iti panchami. Anyatarasyam iti anuvartate. Avyayi bhave touch. Sarvam anuvartate. Samasantaha tadhitaha. Idamapi touch samasanta vidhayakam sutram. Jayantad avyayi bhavat. Jai iti pratyaharaha jabhanya ghadadash jabagadadash kapachatatha chatatau kapai. So jai is a pratyahara for the first four vargiya vyanjana. Kakha gagha chacha jajha tathadadha tathadadha papha babha. Vargiya vyanjaneshu prativargam adau chatvaraha varanaha jai pratyaharena krishyante. Jayantad avyayi bhavat. Yadi avyayi bhava samase jai varanaha ante asti, tarhi tach vikalpena bhavati. So what it basically is doing is, it basically in avyayi bhava, most of the halanta shabdas are converted into adanta, at least optionally. Yadi sharadadi gane patitaha tarhi nityam tach bhavati. Yadi anyaha anye shabdaha jayantaha tarhi vikalpena tach bhavati. Upasamidham upasamit iti udaharanam. Prakriya katham bhavati kopi vadati va. Anybody wants to try? Upasamidham upasamit katham prakriya. సరళమే కిల శుభాగిని అన్మ్యూట్ యువర్సెల్ఫ్. Do you have a प्राप्ति षष्ठी समिध समिध इति धकारान्तः सो समिध ngas उप
उप समिध ngas उप सो दैट इज ड्यू टू द अव्ययम् विभक्ति समीप संकरति शैल आई से दैट
या या वदतु सूत्रं वदतु
अव्ययम् विभक्ति समीप समृद्धि व्यरुद्धि अर्थाभाव अत्यय असंप्रति शब्द प्रादुर्भाव पश्चात यथा अनुपूर्व्य यौगपद्य सादृश्य संपत्ति साकल्य अंतवचनेषु
बहु सम्यक्
सो समिद् उप बिकॉज ऑफ सुपो धातु प्रातिपदिकयोः सुपो लुक एंड समिद् उप ओके सो उपसर्जनं पूर्वं सो उप समिद् एंड उप समिद् सु बिकॉज ऑफ सु औजस् अमौक्षस्
बिफोर दैट द टच वी हैव टू डू द टच
ओके 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 So, upa samid touch, that will be because of touch samya, touch sutram smritavati bhagini.
Etadeva, jayaha.
Jayaha.
Jayam, hakaraha asti, jayam tattvate, jayaha iti sutrena touch.
Touch, iti samya, iti sutram. Touch will be converted to akaraha?
Yes. Because of itsamya. Itsamya letters are deleted. Chutu halantyam tasya lopaha.
Chutu halantyam tasya lopaha. So, samid, upa samid, And tisamya will be also lopaha?
No, that is only for nakaranta. This is not nakaranta.
Okay. So, upa samidha. And su aujas amauchas, so it will be
then upasamidha su
upasamidha su but then
navyayi bhavat
navyayi bhavat atom sva panchamyah su will become amadeshah तो उपसमीध अमिपूर्व सो उपसमीधम
राइट सो टची कृते उपसमीधम इति रूपम यदि टच न भवति
ओके
डायरेक्टली ऐड द सुप्रत्यय
प्रत्ययः देन उपसमीध हाउ विल धकार बिकम सकार भगिनी
That is so before that there is upasamidh su so avyaya rapsupaha ityanena supratyayasya luk so you have upasamidh then we have a sutra called vavasane so it is a sutra which gives chartva kharicha kharicha kharipare jalam charahasyuho va avasane avasane ante ityarthaha so at the end if you have any Vargiya Vyanjana, it gets converted to the first letter of the Varga. So yes, Kimapi. Upasamidh ityasti chet, vastutaha tatra jashtvam bhavati, jhalam jashonte ityanena jashtve upasamidh, tataha vavasane ityanena vaikalpikam chartvam. So we actually have two forms, upasamidh and upasamidh. इति रूपद्वयं भवति बिकॉज ऑफ वावसाने jalam jashonte followed by vavasane. So you have upasamit or upasamid. Akaraha athava dakaraha. प्रश्नाः केपि सन्ति वा माताजि
आम् अव्ययाद् आप्सुपः इस् 2-4 समथिङ्ग्
2-4 समथिङ्ग् सो हल्ग्याभ्य इस् पर बट् दिस् इस् स्पेसिफिक् टु अव्यय I'll find out. I'm okay. Probably should be Abhyaya Rashi.
Bhagini, why are there these sutras with options? Like, there are a lot of places, like you said, Bahulam and Anyatarasya.
You can use both forms. Wherever there is an option, you can use both forms. As in, both forms have been used in Sanskrit.
So that's just the freedom of the person who is using it, like in literature or something, that gives you more freedom?
Yeah, correct. So when you are choosing, you can choose which to use. And the person has already used and you're studying it, you should know that, okay, this is also correct and that is also correct. But when you are using, basically, you can use both.
Okay. Very tough for a grammar student to remember all these things.
So, it's not, see, the thing is, Panini did not set out to make rules and say, this is what you have to use. He's just documenting what has been used before his time. So, wherever both kinds of forms are in use, he says, va. So it's an optional karya. If there is only one form, he'll give a karya only for that.
Okay.
It's analyzing the language, how it was. Vedani, Sanskepaha, Adyavayam, Avyayi Bhava Samase, Samasanta Pratyayan Nyatavantaha, Avyayi Bhave Vastataha Ekaeva Pratyayaha Sti Tachiti. సమాసాంత ప్రత్యయాః భిన్నాః సంతి అచ్ భవతి ష్యా భవతి అన్య ప్రత్యయాః సంతి అత్ర తు కేవలం టచ్ ఇత్యేవ ప్రత్యయః దృష్టః తత్ర అవ్యయీ భావే శరత్ ప్రభృతిభ్యః ఇతి సూత్రేణ శరదాది గణే ఏ శబ్దాః సంతి తేభ్యః శబ్దేభ్యః నిత్యం టచ్ భవతి తత్ సమాసః నిత్యః అతః ఏకమేవ రూపం అనశ్చ అన్నంతః అవ్యయీ భావః तत्र अन्नन्तः शब्दः पुल्लिङ्गे स्त्रीलिङ्गे वा अस्ति चेत् नित्यं टच् भवति यदि अन्नन्तः शब्दः नपुंसकलिङ्गः तदा नपुंसकारण्यतरस्यामित्यनेन वा टच् रूपद्वयं भवति टच् विकल्पेन भवति झयन्तः यदि शब्दः अस्ति तत्रापि विकल्पेन टच् भवति इति व्यवस्था यदि शरदादिगणे पठितः अथवा अन्नन्तः पुल्लिङ्गः स्त्रीलिङ्गो वा तर्हि नित्यं टच् भवति अन्नन्तः नपुंसकश्चेत् अथवा झयन्तः शरदादिगणे यः नास्ति तादृशः झयन्तः चेत् विकल्पेन टच् भवति इति चत्वारि सूत्राणि तत्र यत्र अन्नन्ताः शब्दाः सन्ति तत्र टचि कृते न स्तद्धिते इत्यनेन नस्तद्धिते इत्यनेन तिलोपः अपि भवति इति स्मर्तव्यम् तत्र कश्चित् प्रश्नः विद्युत् इत्यस्य कथं भवति विद्युत् शब्दः शरदादिगणे नास्ति अस्ति किल तत्तु गणं दृष्ट्वा एव ज्ञातव्यं किमस्ति किं नास्ति इति शरदादिगणे विद्युत् शब्दः नास्ति किन्तु झयन्तः तकारः झैवर्णः अतः विकल्पेन टच् भवति उपविद्युतम् उपविद्युत् इति रूपद्वयं भवति प्रश्नाः समासान्तः नाम कः सोदाहरणं विवृणुत. अनश्च इति सूत्रं सोदाहरणं व्याख्यात. अन्नन्तादव्ययीभावात् कः समासान्तः भवति? सप्रमाणं निरूपयत. सप्रमाणं मीन्स् ससूत्रं, सूत्रेण सह. अत्र तु सूत्रद्वयमपि लेखनीयम्. यदि नपुंसकलिङ्गः तर्हि विकल्पेन टच् भवति, यदि अन्यस्मिन् लिङ्गे अस्ति तर्हि नित्यं टच् भवति. उभयथापि उदाहरणम् एकं दातव्यम्. अव्ययीभावसमासे समासान्तप्रत्ययान् सोदाहरणं निरूपयत. सो आल् समासान्तस्, पासिबल् समासान्तस् इन् अव्ययीभाव, इट् इस् दीस् फोर्, आल् फोर् सूत्रस् वित् एन् एक्साम्पल्. मोर् इम्पार्टेण्ट्लि अत्र विग्रहवाक्यं दीयते, तस्य समस्तपदं किं भवति? मनसि हिमवतः समीपं वाक् सम्प्रति न युज्यते. धाम्नि आत्मानम् आत्मानं प्रति. गुणिनाम् अभावः. मरीचिकामपि अपरित्यज्य. कर्मणः योग्यम्. एतेषु विग्रहवाक्येषु समस्तपदं किं भवति? ओके, यू शुड् हाव् आल् द समासान्त सूत्रस् इन् मैण्ड् बिफोर् अटेम्प्टिङ्ग् दि. अग्रिमसप्ताहे अस्य अभ्यासस्य, ह्यस्तन अभ्यासस्य च उत्तराणि परिशील्य अग्रे तत्पुरुषसमासं प्रविशामः. अत्र अव्ययीभावसमासप्रकरणं समाप्तम्. अग्रे तत्पुरुषसमासः भविष्यति. प्रश्नाः सन्ति वा? येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिमुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्.